ग्रंथालय कांग्रेस द्वारा समायोजित संग्रह कार्यक्रमे ग्रंथालय कांग्रेस से द्विशताब्दीय कार्यक्रमे रेवाप्रसाद द्विवेदी नाम अहम आत्मनः कविताः प्रस्तौमि। युगमिदं परमाणोः इति कृत्वा पूर्वं परमाणुमेव आश्रित्य रचिताः काश्चन कविताः प्रस्तौमि। तत्र परमाणुः अस्माभिः प्रमथपदेन गृह्यते। प्रमथः भगवता शंकरस्य गणः अत्यन्तमेव उत्पाती गणः, तर्हि परमाणुः प्रमथत्वेन अस्माभिः गृहीतः। भगवान् शंकरः प्रार्थ्यते, भगवन् नहि ताण्डवस्य वेला ननु विजयानि वधूः सकौतुकैव यमाद्य सयावकाकञ्चित् क्रमते कौतुकवेश्मने वराकी। भगवन् कुरु ताण्डवम् परन्तु प्रियया सार्धमहो न वीरभद्रैः जगती वरवर्णिनीयमद्य शयनीयम् भजते समेद्धरागा। भगवन् प्रहरस्त्वसौ द्वितीयो न तृतीयो न च सप्रदोषकालः गजकृत्तिमिमां कथं दधासि विषधूमोऽयमुदेति नोतमिश्रा। भगवन् परमाणुभिस्त्वदीये रचितं भस्मललाट चत्वरे यत् तदिदं परिकर्म रोचतान्ते ननु विज्ञानमिदं तवैव भूतिः। जडचेतनयो सनातनोऽयं तनुते यामपि सङ्गमस्त्रिवेणीं भगवन्ननु कात्रते परक्तिर्यदि विज्ञानमिहातनोति वृष्टिम्। भगवन् स्फुरतीव ते तृतीयं नयनं संवृणुतत्कृपासुधाब्धे स्मरेशन चापलं विधत्ते प्रमथस्ते परमाणुसंज्ञकोऽयम्। तव नन्दिवृषस्य धर्ममूर्तेर्ज्वलितो बालधिरेश येन शम्भो वदकूटकृपीटयो निरेशोऽन्तरितः कोऽत्र रसे रसायने वा। नरसे स भवान् रसायने नो तदिदं हन्त जडं ब्रवीमि देव ननु मानुष बुद्धिकन्दरे सा निभृता तिष्ठति निरृतिर्जहीमाम्। अयि देव महासमुद्रेश ध्रुवमास्ते चल दुर्मदोर्मि सङ्घः परमेश तवैव चन्द्रहासस्तरलं यः कुरुते तमेन मद्धा। जहितं तव मूर्ध्नि राजमानं ननु दोषाकरमाशु देवदेव यदि तत्र दया दयाधिकारी ननु विजयान्नटो नटेश नो किम्। अयि शीघ्रमिमां जहीः चन्द्रां जगतामीश समागतो दशास्यः सहिते वसतिं निखाय मूलात् क्वचिदन्यत्र निनीशति प्रसह्य। दशगन्धरेश सावधानो भव शम्भोस्तवने कविः सदक्षः दयसे यदि तत्र हे दयालो विषपानं कुरुषे कथं मृषैव। क्षितिजे समुदेत्यहो सपुच्छोच्छलनः कश्चन धूमकेतुसङ्घः तदिदं वृषकेतनत्वमेव क्षपयत् त्वं हि निवारकोऽसि मृत्योः। ऐदार्शनिकाः ऐदार्शनिका यदि त्रिलोक्याम् परमेश प्रतियोगिकोऽस्त्यभावः तदिमाम् परमाणुरत्नशय्याम् रचयद्धेनुकृते परस्य कस्य प्रतिवेशिनि साम्प्रदायिके कः प्रतिवेशी स्वपिति प्रसारिताङ्घ्रिः अयिमानुष यामिनी व्यतीता प्रतिबुद्धियस्व समेवान् प्रभावान् अयिजागृहिजागृहित्वमासु त्यजतन्द्राम् सकलार्थशातित्रीम् वृणुसम् प्रति सद्येव काञ्चित् तव कण्ठीरवताम् जगत्प्रसिद्धाम् निखिलैः कुरुताम् शिवस्य सेवाम् स्वशिरोभिर्दशकन्धरो न चिन्ता अमृतत्ववरः स तस्य दिग्धो गरलेनापि मदाभिधेन दूरम् कुरुतेऽत्र कदापि भारते सुतपसाम् धामसु रावणो न राज्यम् अपरिग्रहगर्धयोरणानाम् परिणामः कुनु गृह्णुतानुकूलः ननु निश्चितमेव रामराज्यम् ननु लङ्कादहनम् सुनिश्चितम् हि जनकस्य सुताम् प्रलोभनाग्निर्न हि धक्ष्यत्यसकौ तु भारती नहाम् दशकन्धरमुञ्चरे स्वमोऽहम् शिव सन्धेहि दृशन्नवह्निगर्भाम् भगवंस्तव वाममेतदक्षिसुधया पूरितमस्ति तन्नमामः।